इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका वन्दना कश्यपः। आदौ मुख्य वार्ताः। राष्ट्रिय परीक्षा संस्थया अस्मिन् मासस्य तृतीये दिनांके आयोजिता नीट परीक्षा निरस्ता भविष्यतीति निर्णयः गृहीतः। भारतीय जनता दलस्य वरिष्ठ नेता डॉ हिमंत बिस्वा सरमा अनवरतम द्वितीय वारं असम राज्यस्य मुख्यमंत्रित्वेन शपथं गृहीतवान्। अस्मिन् मासे चतुर्दश पञ्चदश दिनांकयोः ब्रिक्स विदेश मन्त्रिणा सम्मेलनस्य आतिथ्यं भारतं करिष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः राष्ट्रपति भवने आयोजिते कार्यक्रमे पञ्चदशभ्यः परिचर्या वृत्तिकर्तृभ्यः राष्ट्रिय फ्लोरेंस नाइटिंगल पुरस्कारान् प्रदत्तवती। अपि च इंडियन प्रीमियर लीग क्रिकेट स्पर्धा मालिकायां अद्य सायंकाले अहमदाबाद नगरे गुजरात टाइटन्स अथ च सनराइजर्स हैदराबाद इत्यनयोः दलयोः मध्ये स्पर्धा भविष्यति। अथ वार्ताः विस्तरेण। राष्ट्रिय परीक्षा संस्थया अस्मिन् मासस्य तृतीये दिनांके आयोजिता नीट परीक्षा निरस्ता भविष्यतीति निर्णयः गृहीतः। सामाजिक माध्यमेषु प्रकाशिते सन्देशे संस्थया सूचितं यत् छात्रहितं राष्ट्रिय परीक्षा प्रणाल्याः विश्वसनीयता च रक्षितं एषः निर्णयः स्वीकृतः। संस्थया स्पष्टीकृतं यत् प्रश्नपत्र सम्बद्धानां आक्षेपाणां विस्तृत अन्वेषणार्थम् एषः विषयः केन्द्रीय अन्वेषण अभिकरणाय प्रेषितः। एतदर्थं संस्था पूर्ण सहयोगं प्रदास्यति तथा अन्वेषणाय आवश्यकानि साहित्यानि अभिलेखानि साहाय्यं च उपलब्धं करिष्यति। केन्द्रीय संस्थाभिः आरक्षक बलैः च सह समन्वयनान्तरं प्राप्त सूचनानां आधारेण एषः निर्णयः कृतः। भारतीय जनता दलस्य वरिष्ठ नेता डॉ हिमंत बिस्वा सरमा अनवरतं द्वितीयवारं असम राज्यस्य मुख्यमंत्रित्वेन शपथं गृहीतवान्। गुवाहाटी नगरस्य खानापाड़ा स्थिते पशु चिकित्सा महाविद्यालयस्य प्रांगणे आयोजिते समारोहे राज्यपालः लक्ष्मण प्रसाद आचार्यः तस्मै पदस्य गोपनीयतायाः च शपथं प्रादापयत्।
মই শ্রী হিমন্ত বিশ্ব শর্মা ঈশ্বরৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম।
ডক্টৰ শর্মা মহোদয়েন সহ অন্য চত্বৰহ অপি মন্ত্ৰীমণ্ডলহ মন্ত্ৰিত্বেন শপথম স্বীকৃতৱন্তহ। তেষু ভাজপা দলস্য পক্ষতঃ রামেশ্বর তেলী अजंता नियोग च असम गण परिषद पक्षतः अतुल बोरा तथा बोडोलैंड पीपुल्स फ्रंट पक्षतः चरण बोरो च सम्मिलिताः सन्ति। अस्मिन् समारोहे प्रधानमंत्री नरेन्द्र मोदी केन्द्रीय गृहमंत्री अमित शाह रक्षा मंत्री राजनाथ सिंह अनेके केन्द्रीय मंत्रिणः तथा एनडीए शासित राज्यानां मुख्यमंत्रिणः अपि उपस्थिता आसन्। अनेन सह डॉ शर्मा असम राज्यस्य प्रथमः कांग्रेस रहितः नेता अभवत् यः अनवरतं द्वितीयवारं मुख्यमंत्री पदं अलंकृतवान्। अस्मिन् मासे चतुर्दश पञ्चदश दिनांकयोः ब्रिक्स विदेश मन्त्रिणां सम्मेलनस्य आतिथ्यं भारतं करिष्यति। विदेशमंत्री डॉ एस जयशंकरः अस्य सम्मेलनस्य अध्यक्षतां करिष्यति। अद्य नवदिल्ल्यां प्रसार माध्यमान् सम्बोधयन् विदेश मन्त्रालयस्य प्रवक्ता रणधीर जायसवालः अवदत् यत् अस्मिन् सम्मेलने ब्रिक्स सदस्य राष्ट्राणां सहभागी राष्ट्राणां च विदेश मन्त्रिणः प्रतिनिधिमण्डल प्रमुखाः च उपस्थिताः भविष्यन्ति। सः अपि उक्तवान् यत् ते प्रधानमन्त्रिणा नरेन्द्र मोदिना सह अपि मेलनं करिष्यति। श्री जायसवालः अवदत् यत् अस्मिन् सम्मेलने ब्रिक्स सदस्य राष्ट्राणां विदेशमन्त्रिणः परस्परहितस्य वैश्विक क्षेत्रीय विषयेषु स्वविचाराणाम् आदान प्रदानं करिष्यन्ति।
14 और 15 तारीख को ब्रिक्स विदेश मंत्री की बैठक हो रही है जिसकी अध्यक्षता हम लोग कर रहे हैं। जहां तक देशों का आपने जिक्र किया उनकी तरफ से कौन आएगा ये तो खैर उनको तय करना है, लेकिन जैसे जैसे लोग आएंगे आपको पता चल जाए कौन उनके नेतृत्व कर रहे हैं कौन लोग उसमें भाग ले रहे हैं।
अद्य अन्ताराष्ट्रिय परिचारिका दिवसः आचर्यते। अयं दिवसः आधुनिक परिचारिका व्यवस्थायाः संस्थापिकायाः फ्लोरेन्स नाइटिंगल इत्यस्याः जन्मवार्षिक्याः उपलक्ष्ये प्रतिवर्षम् आचर्यते। रोगी परिचर्यायां सामुदायिक स्वास्थ्ये आर्थिक विकासे च परिचारिकाणां महत्वपूर्णां भूमिकां स्वीकृत्य अयं दिवसः आचर्यते। अस्मिन् वर्षे अन्ताराष्ट्रिय परिचारिका दिवसस्य विषयः अस्माकं परिचारिकाः अस्माकं भविष्यम् इति। सशक्ताः परिचारिकाः जीवनानि रक्षन्ति इति उपविषयः अपि निर्धारितः अस्ति। एतत् वैश्विकस्तरे परिचर्या व्यवसायिकानां कृते उत्तमसहयोगस्य संरक्षणस्य संसाधनानां च आवश्यकतां प्रकाशयति। अस्मिन् अवसरे राष्ट्रपतिः द्रौपदी मुर्मुः राष्ट्रपतिभवने आयोजिते कार्यक्रमे पञ्चदशभ्यः परिचर्या वृत्तिकर्तृभ्यः राष्ट्रिय फ्लोरेंस नाइटिंगेल पुरस्कारान् प्रदत्तवती। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी पश्चिम बंगाल राज्यस्य नूतन निर्वाचित मुख्यमन्त्रिणः शुभेन्दु अधिकारिणः नेतृत्वे प्रथम मन्त्रिमण्डल गोष्ठ्याः निर्णयानां भूरि प्रशंसां कृतवान्। सामाजिक माध्यमेन प्रधानमन्त्री प्रोक्तवान् यत् पश्चिम बंगाल राज्यस्य जनानां कल्याणमेव सर्वोपरि प्राथमिकता वर्तते। श्रीमोदी हर्षं प्रकटितवान् यत् अधुना राज्यस्य नागरिकाः विश्वस्य बृहत्तम स्वास्थ्य योजनायाः आयुष्मान भारत इत्यस्य लाभं प्राप्तुं शक्ष्यन्ति, या उच्चस्तरीय सुलभ चिकित्सा संविध्य सुनिश्चितोति। प्रधानमन्त्री सबलं प्रोक्तवान् यत् एषः द्विचक्रीय सर्वकारः राज्ये प्रमुखः केन्द्रीय योजनानां निर्बाध वितरणं सुदृढीकरिष्यन्ति। उल्लेखनीयं वर्तते यत् ह्यः जातायां प्रथम मन्त्रिमण्डल गोष्ठ्यां बांग्लादेश स्मीनः कण्टक तार वेष्टनार्थं पञ्चचत्वारिंशत् दिनाभ्यन्तरे सीमा सुरक्षाबलाय भू हस्तान्तरणस्य ऐतिहासिक निर्णयः अपि स्वीकृतः। प्रधानमन्त्री नरेन्द्र मोदी शुक्रवासरात् आरभ्य संयुक्त अरब अमीरात नीदरलैंड्स स्वीडन नॉर्वे इटली पञ्चदेशानां यात्रायां भविष्यति। प्रधानमन्त्री श्रीमोदी शुक्रवासरे संयुक्त अरब अमीरात देशस्य राष्ट्रपतिना शेख मोहम्मद बिन जायद अल नह्यान इत्यनेन सह मेलनं करिष्यति। उभौ नेतारौ द्विपाक्षिक विषयेषु विशेषतः ऊर्जा सहकारे परस्पर हितानां क्षेत्रीय अन्ताराष्ट्रिय विषयेषु च विचार विनिमयं करिष्यतः। गुजरात राज्ये जनगणनायाः प्रथमः चरणः जून मासस्य प्रथम दिनांकात् आरभ्यते। जून गुजरातस्य गांधीनगरे वार्ताहरान् संबोधयन् जनगणना परिचालन निर्देशकः सुजल जे मायात्रा इत्येषः अवदत् यत् राज्य जनगणना परिचालन निदेशालय जनगणना 27,000,000 कृते सज्जतां करोति। प्रथमवारं भारतसर्वकारेण आरब्धस्य सर्व स्वयं गणना पोर्टल इत्यस्य माध्यमेन जनगणनायां भागं ग्रहीतुं नागरिकेभ्यः अवसराः प्रदीयन्ते। मई मासस्य 17 दिनांकात् 31 दिनांक पर्यन्तं जनाः अस्मिन् पोर्टले स्वीयां स्वयं गणनां पूरयितुं शक्नुवन्ति। अस्य उपक्रमस्य अन्तर्गतं नागरिकाः स्वेच्छया स्वगृहाणाम् उपलब्ध सैविध्यानां सम्पत्तीनाम् अन्य विवरणानां च सूचनाः सरलतया सुरक्षितरूपेण सरलरीत्या च आन्लाइन् इति आभासीय माध्यमेन पूरयितुं शक्नुवन्ति। क्रिकेट प्रीमियर लीग क्रिकेट स्पर्धा मालिकायां अद्य सायंकाले अहमदाबाद नगरे गुजरात टाइटन्स अथ च सनराइजर्स हैदराबाद इत्यनयोः दलयोः मध्ये स्पर्धा भविष्यति। एषा क्रीडा सायं 7:30 आरप्स्यते इति वार्ताः।